ीम् जगद्धात्रीम् स्थितिसम्हारकारिणीम् निद्राम् भगवते विष्णो रघुराम् तेजसः प्रभुः ब्रह्मोवाच त्वम् स्वाहा त्वम् सदा त्वम् हि सत्कारपरात्मिका सुधा त्वमक्षरे नित्ये कृता मात्रात्मिकास्थिता अर्धमात्रास्थिका नित्यायामुत्याशाविशेषतः त्वमेन सन्ध्यापादित्री तम् देवि जननी परा त्वयि सद्धार्यते विश्वम् त्वयैकसृज्यते जगत् त्वयैकपाल्यते देवि समर्जन्ते च पर्वता विसृष्टौ सृष्टिरूपा त्वम् स्थितिरूपाकपालने तथा संहृतिरूपान्ते जगतोऽस्य च कन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहाय भवति महादेवी महाभुवि प्रकृतिस्त्वम् च सर्वस्य गुणत्रयविभागिनी कालरात्रि महारात्रि भोगरात्रिकारुणा त्वम् हे त्वमीश्वरे त्वम् हे त्वम् बुद्धबोधलक्षणा लज्जा पुत्युस्तथा पुत्युस्त्वम् शान्तिः शान्तिरेव च खड्गिनी शूलिनी घोरा दहिनी चक्रिणी तथा शङ्खिनी कापिनी बाणभुरुण्डी हरिधारुका सौम्या सौम्यतराशेष सौम्येष्यस्मतिसुन्दरी परा पराणाम् परमा त्वमेव परमेश्वरी
यच्च किञ्चित्
क्वचित्तत्तु करतरत्वाखिलात्मिके तस्य सर्वस्य याशक्ति प्राप्तम् किम् श्रूयते तदा यया त्वया जगत्प्रष्टा जगत्पाप्यस्ति यो जगत् कोऽपि निद्रावधन्नी तत्त्वाम् कोऽतु महेश्वरः विष्णुश्चरीरग्रहणमहमीशानदेवत
कारितास्त्रेण
कोतत्वाम् कर्तोतुम् शक्तिमान् भवेत् कारितास्तेयकोतत्वाम् कर्तोतुम् शक्तिमान् भवेत् सा त्वमित्थम् प्रभावैश्वरैरुदारैर्देवि संस्कृता मोहदेशौ दुराधर्षाकुरौ महदुःखैकभौ प्रबोधम् च जगत्स्वामीयकामच्युतो लघु बोधस्य क्रियकामस्य हन्तुमेतौ महापुरौ